इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः नरेन्द्रदत्त सेमवालः। आदौ मुख्यवार्ताः। प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान् यत् कृषकाणां कल्याणमेव तस्य सर्वकारस्य सर्वोच्च प्राथमिकता अस्ति। सहैव कृषकाणाम् आयं वर्धयितुं स्वकीयां प्रतिबद्धताम् अपि सः अप्रकाशयत्। राष्ट्रिय सुरक्षा परामर्शदः अजीत डोभाल अद्य मॉस्कोनगरे रूसस्य सुरक्षा परिषदः प्रमुखेन सर्गेई शोइगु इत्यनेन सह मिलितवान्। विशिष्ट गहन संशोधन अभियानम् अन्य विषयाञ्च अधिकृत्य विपक्षिदलानां विरोधेन लोकसभायाः राज्यसभायाः च कार्याचरणं निरन्तरं बाध्यते। उत्तराखण्डे मेघविस्फोटनेन जातस्य भूस्खलनस्य अनन्तरं बृहदस्तरीयाणि सहायोद्धार कार्याणि तृतीयदिवसे अपि प्रचलन्ति। अपि च ऋतुविज्ञान विभागेन अद्य पूर्वोत्तर राज्येषु उपहिमालयीय पश्चिम बंगे क्षेत्रे च अतिवृष्टेः संचेतना प्रसारिता अस्ति। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान् यत् भारतं स्वकीयानां कृषकाणां मत्स्यपालकानां च हितविषये कदापि सन्धिं न करिष्यति। अद्य नवदिल्ल्यां एमएस स्वामिनाथन शताब्दी अन्ताराष्ट्रिय सम्मेलनम् इत्येतत् सम्बोधयता प्रधानमन्त्रिणा एतत् वक्तव्यं सबलं प्रतिपादितं यत् कृषकाणां कल्याणम् एव तस्य सर्वकारस्य सर्वोच्च प्राथमिकता अस्ति। सः अवदत् यत् कृषकाणाम् आयं वर्धयितुं कृषिकार्ये व्ययं न्यूनीकर्तुं च सर्वकारः निरन्तरं कार्यं कुर्वन् अस्ति। सः अकथयत् यत् सर्वकारेण कृषकाणां शक्तिः राष्ट्रप्रगत्याः आधाररूपेण अंगीकृता अस्ति।
हमारे लिए अपने किसानों का हित सर्वोच्च प्राथमिकता है। भारत अपने किसानों के, पशुपालकों के और मछुआरे भाई बहनों के हितों के साथ कभी भी समझौता नहीं करेगा। और मैं जानता हूं व्यक्तिगत रूप से मुझे बहुत बड़ी कीमत चुकानी पड़ेगी, लेकिन मैं इसके लिए तैयार हूं।
अद्य भारतं जगति दुग्धधान्य जूटानां प्रथमोत्पादकः देशः अस्ति इति प्रधानमन्त्रिणा प्रकाशितम्। सः अवदत् यत् गतवर्षे भारते खाद्यान्नस्य सर्वाधिकं उत्पादनं संसूचितम्। सः अवदत् यत् गतवर्षे भारते खाद्यान्नस्य सर्वाधिकं उत्पादनं संसूचितम्। सः अवदत् यत् डॉ स्वामिनाथनवर्यः भारतं खाद्योत्पादने स्वावलम्बनं प्रति नेतुम् आन्दोलनस्य नेतृत्वं कृतवान्। सः जलवायु प्रतिरोधिनां सस्यानां अधिकाधिकान् सस्य प्रकारान् उष्ण प्रतिरोधि सस्यानि च विकसितुं ध्यानस्य आवश्यकतां सबलं प्रतिपादितवान्।
कुछ व्यक्तित्व ऐसे होते हैं जिनका योगदान किसी एक कालखंड तक सीमित नहीं रहता। प्रोफेसर एम एस स्वामीनाथन ऐसे ही महान वैज्ञानिक थे, मां भारती के सपूत थे। उन्होंने विज्ञान को जन सेवा का माध्यम बनाया। फूड सिक्योरिटी को उन्होंने अपने जीवन का ध्येय बना लिया। उन्होंने वो चेतना जागृत की जो आने वाली कई सदियों तक भारत की नीतियां और प्राथमिकताओं को दिशा देती रहेगी।
स्वामीनाथन वर्यः भारत रत्न पुरस्कारेण सम्मानयितुं सर्वकारेण अवसरः प्राप्तः इति प्रधानमन्त्री अकथयत्। विगत दश वर्षेषु हस्ततन्तु वयनेन सम्पूर्णे देशे नूतन परिचयः शक्तिः च प्राप्ता इति अपि प्रधानमन्त्री प्रोक्तवान्। राष्ट्रिय सुरक्षा परामर्शदः अजीत डोभालः अद्य मॉस्को नगरे रूसस्य सुरक्षा परिषदः प्रमुखेन सर्गेई शोइगु इत्यनेन सह मिलितवान्। श्री डोभालः अवदत् यत् भारतस्य रूसदेशेन सह विशिष्टाः पुरातन सम्बन्धाः सन्ति तथा च अनेन सम्बन्धानां महत्वं प्रतिपद्यते।
We have had high level engagements and these high level engagements have contributed very substantially. We are very excited and delighted to learn about the visit of His Excellency the President of Russia, President Putin, to India. I think that the dates are almost finalized now. The more important thing is these summit meetings have always been the watershed points. They have always given a new direction to our relations. So I do hope that this meeting at this point of time will give us some new ideas that we can make the forthcoming meeting more worthwhile.
संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। अस्य सप्ताहस्य चतुर्थ दिने अपि बिहार राज्ये आयोजितस्य विशिष्ट गहन संशोधन अभियानम् अन्य विषयान् च अधिकृत्य विपक्षि दलानां विरोधेन लोकसभायाः राज्यसभायाः च कार्याचरणं बाधितम् अभवत्। विपक्षि दलानां कोलाहल मध्ये उभय सदने पूर्णदिवसाय स्थगिते अभवताम्। अपराह्ने द्विवादने द्वितीय स्थगनस्य अनन्तरं यदा लोकसभायाः उपवेशनम् अभवत् तदा विपक्षि दलानि सदन मध्ये आगत्य विशिष्ट गहन संशोधनस्य विषये चर्चां याचितवन्तः। कोलाहल मध्ये एव सभया मणिपुर वस्तु सेवा करस्य संशोधन विधेयकं मणिपुर विनियोगस्य विधेयकं च स्वीकृतम्। विशिष्ट गहन संशोधनम् अधिकृत्य विपक्षि दलानां निरन्तरं विरोध प्रदर्शनं दृष्ट्वा पीठासीनाधिकारी असन्तोषं प्रकटितवान्। तेन चर्चायां भागं स्वीकृत्य स्वकीयानां संवैधानिक कर्तव्यानां पालनं कर्तुं ते सांसदाः स्मारिताः। कोलाहल मध्ये अध्यक्षेण सभा पूर्णदिवसाय स्थगिता। राज्यसभायामपि एतादृशानि एव दृश्यानि द्रष्टुमागतानि। अपराह्णे द्विवादने प्रथमस्य स्थगनस्य अनन्तरं यदा सभा समारब्धा तदा विपक्षिदलानि विशिष्ट गहन संशोधन विषये उच्चैर्घोषं कर्तुम् आरभन्त। कोलाहल मध्ये सभया तटीय नौवहन विधेयकं स्वीकृतम्। राज्यसभायां विपक्षस्य नेता मल्लिकार्जुन खड़गे अवदत् यत् विपक्षि दलानि विशिष्ट गहन संशोधन विषये समर्थनं दातुं सज्जानि सन्ति, परञ्च सभायाम् अस्मिन् विषये चर्चायाः अनुमतिः अवश्यं प्रदातव्या। पीठासीनाधिकारी अवदत् यत् विरोधं कुर्वन्तः सांसदाः सभायां शिष्टाचारं न पालयन्ति। कोलाहल मध्ये अध्यक्षेण सभा पूर्णदिवसाय स्थगिता। उत्तराखण्डे उत्तरकाशी मण्डलस्य धराली हरसिल क्षेत्रयोः मेघविस्फोटस्य भूस्खलनस्य च अनन्तरं अद्य बृहदस्तरीयाणि साहाय्योद्धार कार्याणि तृतीयदिने अपि प्रचलन्ति। सेना आरक्षी एनडीआरएफ एसडीआरएफ आईटीबीपी नागरिक प्रशासन चेत्यादीनां प्रायः 18,500 कर्मचारिणः उद्धार प्रयासेषु सक्रियरूपेण संलग्नाः सन्ति। तत्रैव 14,800 अतिरिक्त कर्मचारिणः साहाय्यार्थं सज्जाः सन्ति। अस्यां घटनायां 50 तोप्यधिकाः जनाः लुप्ताः सन्ति इति सूचनास्ति। तेषु एकः भारतीय सेनायाः जेसीओ, अष्टौ सैनिकाः च सन्ति। उद्धारावधौ 9 सैन्यकर्मिणः, 3 नागरिकाः विमानेन देहरादून नगरं प्रति प्रेषिताः। गंभीररूपेण घातिताः 3 नागरिकाः एम्स ऋषिकेशं प्रति प्रेषिताः सन्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य राष्ट्रिय हथकरघा दिवस इत्यस्मिन् अवसरे देशवासिभ्यः शुभकामनाः प्रदत्ताः। एकस्मिन् सामाजिक सन्देशपटले प्रकाशिते सन्देशे श्रीमोदी अकथयत् यत् एषः दिवसः भारतस्य समृद्धवयनपरम्परायाः रूपेण आचर्यते, येन नागरिकाणां रचनात्मकतायाः प्रदर्शनं क्रियते। प्रधानमन्त्रिणा भारतस्य हस्तवयनवैविध्यम् आजीविकां समृद्धिं च अग्रे नेतुम् अस्य भूमिकां सहर्षं प्रशंसिता। निर्वाचनायोगः अद्य उपराष्ट्रपति निर्वाचनाय नामांकनं प्रख्यापितुम् अधिसूचनां प्रकाशितवान्। अस्य मासस्य 21 दिनांकं यावत् उपराष्ट्रपतिपदाय नामांकनं विधातुं शक्यते। निर्वाचनं च सितम्बर मासस्य 9 भविष्यति। विगतमासे उपाध्यक्षपदात् जगदीप धनखड़ इत्यस्य त्यागपत्र प्रदानानन्तरम् एतत् निर्वाचनम् आवश्यकमस्ति। एतत् 70 उपराष्ट्रपति निर्वाचनं भविष्यति। अवधेयं यत् उपराष्ट्रपति निर्वाचनम् एकेन निर्वाचक मण्डलेन क्रियते, यस्मिन् लोकसभायाः राज्यसभायाः च सदस्याः सम्मिलिताः भवन्ति। अधिसूचनायाः अनुसारं पदेच्छुकाः प्रत्याशिनः अस्य मासस्य 21 दिनांकं यावत् स्वकीयं नामांकनं कर्तुं शक्नुवन्ति। नामांकनपत्राणाम् अन्वीक्षणम् अगस्त मासस्य 22 दिनांके भविष्यति। अपि च नामांकन प्रत्यावर्तनस्य अन्तिमा तिथिः अस्य मासस्य 25 दिनांकः अस्ति। मतानां गणना सितम्बर मासस्य 9 दिनांके भविष्यति। जम्मूकश्मीरस्य धामपुर जनपदे अद्य केन्द्रीयारक्षिबलस्य 3 सुरक्षाकर्मिणः नीयमानं एकं वाहनं मार्गात् स्खलितो भूत्वा नालिकायाम् अपतत्, येन तेषां मृत्युरभवत्। अन्ये 15 सैनिकाः च व्रणिताः अभवन्। ऋतुविज्ञानविभागेन अद्य अरुणाचलप्रदेशे, मेघालये, नागालैण्डराज्ये, मणिपुरे, मिजोरमे, त्रिपुरायाम्, उपहिमालयीय पश्चिम बंगक्षेत्रे, सिक्किमे च अतिवृष्टेः नारंगवर्णीया सञ्चेतना प्रसारिता अस्ति। उत्तराखण्ड हिमाचल प्रदेशयोः अस्य मासस्य 12 प्रचण्ड वृष्टिः भविष्यति इति विभागेन सम्भावना प्रकटितास्ति। ऋतुविभागेन अद्य कर्णाटक बिहार झारखण्डेषु अपि एतादृशी एव परिस्थिति अनुमिता अस्ति। अरुणाचलप्रदेशे श्वः प्रचण्ड वृष्टिः भवितुं शक्नोति इति वार्ताः।